ॐ श्री परमात्मने नमः। अथ षोडशोऽध्यायः। श्री भगवान् उवाच। अभयं सत्त्वसंशुद्धि ज्ञानयोग व्यवस्थितिः दानं दमष्टयज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोध त्याग शांतिरपैशुनम् दया भूतेष्वलोलुपम् मार्दवं हेरचापलम् तेजः क्षमा धृति शौच मद्रोः नातिमानिता भवन्ति सम्पदं दैवी मभिजातस्य भारत माशुचः सम्पदं दैवी मभिजातोऽसि पाण्डव द्वौ भूतसर्गौ लोकेशे दैव आसुर एव च दैवो विस्तर्षः प्रोक्त आसुरं पाठमेष्णु प्रवृत्तिं च निवृत्तिं च जनान विदुरासुराः न शौचम् चाचारो न सत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतम् कामहैतुकम् एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबोद्धयः प्रभवान्त्युग्रकर्माणः क्षयाय जगतो हिताः काममाश्रित्य दोष्पूरम् दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहान् प्रवर्तन्ते शुचिव्रताः चिन्तामपरिमेयाञ्च मलयान्तामुपाश्रिताः कामोपभोगपरमा एतावदिति निश्चिताः आशापाशशतैर्वद्धाः कामक्रोधपरायणः इहन्ते कामभोगार्थ मन्यायेनार्थ सञ्चयाम् इदमद्य मया लब्ध मिमं प्राप्ते मनोरथम् इदमस्ति दमपि मे भविष्यति पुनर्धनम् असौ मया हतः शत्रु अनीशे चापरानपि ईश्वरो सिद्धोऽहं बलवान् सुखी आज्योऽभिजनमानसि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिश्य इत्यज्ञानविमोहिता चित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेषु तौ आत्मसम्भावितास्तब्धा यजन्ते नाम यज्ञैस्ते दम्भेना विधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः तानहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपाम्यजश्रमशुभा नासुरिष्वेवयोनिषु आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्त्यधमाङ्गतिम् त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् एतैः मुक्तः कौन्तेय नरः आचरत्यात्मनः श्रेयः ततो याति पराङ्गतिम् यः शास्त्रविधिमुत्सृज्य वर्तते ते काम कारत न स सिद्धिम वाप्नोति न सुखं न परांगतिम् तस्मात् शास्त्रं प्रमाणं ते कार्याकार्य व्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि गीता सूपनिषत्सु ब्रह्म विद्यायां योग शास्त्रे श्री कृष्णार्जुन संवादे दैवासुर संपद विभाग योगो नाम षोडश।